तोष्येव स्या विष्णुमनादिं जगदादिं यस्मिन्नेतत् संस्कृतिचक्रं भ्रमति स्थम् यस्मिन् दृष्टे नश्यति तत् संस्कृतिचक्रम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यस्यैकांशादिस्थमशेषं जगदेतत् प्रादुर्भूतं येनपि नद्धं पुनरित्थम् येन व्याप्तं येन विबुद्धं सुखदुःखैः तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे सर्वज्ञो यो यश्च हि सर्वसकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधाम यश्चाव्यक्तो व्यक्तसमस्तः सदसद्यः तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यस्मादन्यन्नास्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ज्ञातृज्ञानज्ञेयविहीनोऽपि सदाज्ञः तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे आचार्येभ्यो लब्धसु सूक्ष्माच्युतत्वाः वैराग्येनाभ्यासबलाच्चैव दृढिम्ना भक्त्यैकाग्र्यध्यानपरायं विदुरीशम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे प्राणानायं व्योमिति चित्तं हृदि रुद्ध्वा नान्यत् स्मृत्वा तत्पुनरत्रैव विलाप्य क्षीणे चित्ते भाद्रशिरस्मीति विदुर्यम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यं ब्रह्माख्यं देवमनन्यं परिपूर्णम् हृत्थं वक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ध्यात्वात्मस्थं ब्रह्मविदोऽयं विदुरीशम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे मात्रातीतं स्वात्मविकासात्मविबोधम् ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य भावग्राह्यानन्दमनन्यं च विदुर्यम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यद्यद्वेद्यं वस्तु सतत्त्वं विषयाख्यम् तत्तद्ब्रह्मैवेति विदित्वा तदहं च ध्यायं सेवं यं सनकाद्यामुनयोजं तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य तस्मिन्नस्मीत्यात्मविदोऽयं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे हित्वा हित्वा दृश्यमशेषं सविकल्पं मत्स्वाशिष्टं भाद्रशिमात्रं गगनाभम् त्यक्त्वा देहं यं प्रविशं त्यच्युतभक्ता तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे सर्वत्रास्ते सर्वशरीरी न स सर्वः सर्वं वेत्येवेह नयं वेत्ति च सर्वः सर्वत्रान्तर्यामि तयेत्थं यमयन्यः तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे सर्वं दृष्ट्वा स्वात्मनियुक्त्य जगदेतत् दृष्ट्वात्मानं चैवमजं सर्वजनेषु सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्थम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे पश्यन् शृण्वन्नत्र विजानन् रसयन् सं जिघ्रद्बिभ्रद्देहमिमं जीवत एत्थम् इत्यात्मानं यं विदुरीशं विषयज्ञम् तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे जाग्रदृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेथापि सुषुप्तौ सुखनिद्राम् इत्यात्मानं वीक्ष्य मुदास्ते चतुरीये तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे पश्यन् शुद्धोऽप्यक्षरयेको गुणभेदात् नानाकारान् स्फाटिकवद्भाति विचित्रः भिन्नश्चिन्नश्चायमजः कर्म फलैर्यः तं संसारध्वान्तविनाशं हरिमीडे तम संसार ध्वांत विनाशम हरिनीरे ब्रह्मा विष्णु रुद्र हुताशौ रविचंद्रौ इंद्रो वायुर्यज्ञ इतिथं परिकल्प्य एकं संतं यं बहुधाहुर्मति भेदात् तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं शान्तं गूढं निष्कलमानन्दमनन्यम् इत्याहादौ यं वरुणोऽसौ भृगवेजं तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे कोशानेकान् पञ्चरसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् पित्राशिष्टो वेद भृगुर्यं यजुरन्ते तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढः तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे दृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यम् व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् सत्सत्यत्सा भूत्परमात्मा स य एकः तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्वततं प्रैश्चयमीशम् दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्यम् तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे श्रद्धा भक्ति ध्यान शमाद्यैर्यतमानैः ज्ञातुं शक्यो देव इहैवाशु यहीशः दुर्विज्ञेयो जन्म शतैश्चापि विना तैः तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे यस्यातर्क्यं स्वात्मविभूतेः परमार्थम् सर्वं खल्वित्यत्र निरुक्तं श्रुतिरिद्धिः सज्जाति त्वादब्धितरङ्गाभमभिन्नम् तं संसार ध्वांत विनाशं हरिनीरे तं संसार ध्वांत विनाशं हरिनीरे दृष्ट्वा गीता स्वक्षरतत्वं विधिनायम् भक्त्या गुरुव्या लभ्यर्दिष्ठं वृषिमात्रं ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसारध्वान्त विनाशं हरिमीडे क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो भुङ्क्ते जस्रं भोग्य पदार्थान् प्रकृतिस्थः क्षेत्रे क्षेत्रे त्रिन्दुवदेको बहुधास्ते तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे युक्त्यालोद्यव्यासवचांस्यत्र हि लभ्यः क्षेत्र क्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे एकीकृत्यानेकशरीरस्थमिमं ज्ञम् यं विज्ञाये हैव स एवाशु भवन्ति यस्मिन् लीनानेह पुनर्जन्म लभन्ते तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः कृत्वा शक्रोपासनमासाद्य विभूत्या योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे योऽयं देहे चेष्टयितान्तःकरणस्थः सूर्ये चासौ तापयिता सोऽस्म्यहमेव इत्यात्मैक्योपासनयायं विदुरीशम् तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे विज्ञानांशो यस्य सतशक्त्यधिरूढो बुद्धिर्बुद्ध्यस्यत्र बहिर्बोध्यपदार्थान् नैवान्तस्थं बुध्यति यं बोधयितारं तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञाता श्रोता मन्त्रयिता चैष हि देवः इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं तं संसारध्वान्त विनाशं हरिमीडे तं संसारध्वान्त विनाशं हरिमीडे को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति इत्यस्ति त्वं वक्त्युपपत्या श्रुतिरेष तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे प्राणोऽहं वाक्श्रवणादीनि मनो वा बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः चित्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे नाहं प्राणो नैव शरीरं न मनोऽहम् नाहं बुद्धिर्नाहमहंकारधियौ च योऽत्र ज्ञांशस्कोऽस्म्यहमेवेति विदुर्यम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे सत्तामात्रं केवलविज्ञानमजं सत् सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय साम्नामन्ते प्राह पितायं विभुमाद्यम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय चैतन्यांशे स्वात्मनि सन्तं च विदुर्यम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे ओतं प्रोतं यत्र च सर्वं गगनां तं यो स्थूलानन्मादिषु सिद्धोऽक्षरसंज्ञः ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्यः तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे तावत् सर्वं सत्यमिवाभाति यदेतत् यावत् सोऽस्मीत्यात्मनि योज्यो न हि दृष्टः दृष्टे यस्मिन् सर्वमसत्यं भवतीदम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे रागामुक्तं लोहयुतं हेम यथाग्नौ योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ दद्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे यं विज्ञानज्योतिषमाद्यं सुविभान्तम् कृत्यर्केन्द्रज्ञोपसमीड्यं तटिदाभम् भक्त्याराध्ये हैव विशंस्यात्मनि सन्तम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे मायाभक्तं स्वात्मनि सन्तं पुरुषं यो भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् इत्यात्मानं स्वात्मनि संहृत्य सदैकः संसंसारध्वान्तविनाशं हरिमीरे संसंसारध्वान्तविनाशं हरिमीरे।